एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। भगिनी
नमस्ते भगिनी।
अहं क्षम्यतां म्यूट् मध्ये गतम्। सर्वेषां स्वागतम्। नम्रता भगिनी, वयं दृष्टवन्तः खलु इत्संज्ञाप्रकरणं कति सूत्राणि सन्ति तत्र?
सप्तसूत्राणि सन्ति।
भवती वदति वा प्रथमसूत्रं किम् अस्ति?
आं भगिनि, प्रथमसूत्रम् उपदेशे जनुनासिकैत् इति। तत्र मूलरूपे अच् अनुनासिक वर्णाः अस्ति चेत् तत् इत्संज्ञा भवति। अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति।
बहु सम्यक्, बहु सम्यक्। अहम् इदानीम् एकैकं पृच्छामि। मूर्ति भ्राता, भवती वदति वा द्वितीयसूत्रं किम् अस्ति? द्वितीयसूत्रं किम् अस्ति इति? अहं प्रदर्शयामि वा?
हलन्त्यम् अनुनासिक इत्संज्ञा भवति।
हलन्त्यम् इति द्वितीयसूत्रम् अस्ति। तस्य हलन्त्यम् इति इत्संज्ञा भवति। बहु समीचीनं,
धन्यवादः।
तृतीयं कः वदति? एकनिमिषः।
अहं वदामि महोदय।
हा, वदतु महोदय।
न विभक्तो तु स्मः, न विभक्तो तु स्मः, तत्र मतुजकी अनुवृत्ति अस्ति उपदेशे। एवं हल अन्त्यं सूत्रं भवति उपदेशो विभक्तो अन्त्या हल तुस्माः न इतः। अस्तु, तो अत्र किमस्ति कि विभक्तिम् अपवादसूत्रमस्ति, निषेधकसूत्रमस्ति, निषेधकसूत्रमस्ति। प्रथम अध्याये तृतीयपादे चतुर्थं श्लोकमस्ति। तो तत्र किमपि विभक्तिः अस्ति, तत्र मतिजकि अन्तिम वर्ण तु वर्ण स ध द द न एवं स म भवति, ते मतिजकि इति संज्ञा भवति। उदाहरणं किं तिङ् सुप् तत्र तस् अस्ति, तस् अन्तिमवर्णः अस्ति। हलन्तं सूत्रम् अत्र कार्यं करोति, तत्र मत न विभक्तो तु स्म आगत्य निषेध करोति कि अत्र स इति संज्ञा न भवति। तर्हि आम् आम् अपि अस्ति, इति संज्ञा न भवति, न विभक्तो तु स्मः।
बहु बहु समीचीनं, बहु समीचीनं महोदय। अस्तु, चतुर्थसूत्रं ऋषिकेश भ्राता वदति वा?
आदि शब्दः वर्ण इति संज्ञा भवति
आदिः एतत् केवलं धातोः कृते एव म्यूट् मध्ये तिष्ठतु महोदय ध्वनिः अस्ति एतत् सूत्रं केवलं धातोः कृते एव अस्ति अस्तु केतकी भगिनी पञ्चमसूत्रं के
ईर ईर इत्संज्ञा वाच्या नेति
अत्र न न न भगिनि अत्र पश्यतु अत्र पश्यतु अत्र किमस्ति तदनन्तरं
शप्रत्ययस्य ओके 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 शप्रत्ययस्य दिस् अत्र सूत्र अस्ति फार् द प्रत्ययस्य कारणे न तु धातुकारणे
धातुकारणेन नास्ति केवलं प्रत्ययस्य कृते एव एतत् सूत्रं प्रत्ययस्य कृते
क्षम्यतां भगिनि प्रत्ययस्य कृते अस्ति न तु धातु मध्ये आदि शः प्रत्ययस्य आदि अस्ति तस्य उपदेशे इत् आदि भवति उदाहरणरूपेण शाकन्न श आक योगन्न तत्र नकारस्य हलन्त्यन्सूत्रेण लोप भवति आक अवशिष्यते श शा भवति आक शाकन अन्तिमरूपं भवति
अस्तु
क्षम्यतां किं कारणं भवति सार्थं न भवति स इति संज्ञा भवति
आक आक एव आगच्छति शकारः गच्छति
आम् महोदय एकं प्रश्नमस्ति महोदय एकं प्रश्नमस्ति अत्र आदिनि टुडुव अस्ति तत्र धातो धातो एव कार्यं करोति प्रत्ययकार्यं न
अत्र केवलं धातो
कोमं किमस्ति उभयापि किं किं कार्यं करोति उपदेशजनौ नासिकेत् उपदेश उभयोपि कार्यं करोति हलन्तम् उभयोरपि कार्यं करोति न विभक्तो तूष्मा विभक्ते कार्यं करोति धातो कामं न करोति धातो कामं करोति न विभक्ति
सम्यक् महोदय अस्तु अस्तु भगिनि धन्यवादाः भगिनि
धन्यवादः
के वि महोदय भवान् अग्रिमसूत्रं वदतु
नमस्कारः
नमस्कारः महोदय
अग्रिम सूत्रम् अस्ति प्रत्यय एव सूत्र अस्ति चुट्टु चुट्टु पद गुरु पदेव अस्ति अतः प्रथमा विभक्ति द्विवचन चुट्टु अस्ति चुट्टु सूत्रस्य प्रत्ययस्य आदौ चु वा टु वर्णः अस्ति चेत् तस्य इति संज्ञा भवति चु चु वर्गः अस्ति च छ च ठ ज झ ञ टु वर्गः अस्ति ट ठ ढ ढ ण एक पदं सूत्रमस्ति अनुवृत्ति सूत्र सहित सूत्रमस्ति उपदेशे इत् आदिः प्रत्ययस्य उपदेशे प्रत्ययस्य आदि चुटु इतौ
किमर्थः किम् एतत् किं सूचयति
आ आदि यत्र प्रत्ययस्य आदि चु वा टु वर्ग वर्णास्ति तत् तत् इत् संज्ञा भवति
न मम प्रश्नः अस्ति एते केव शब्दाः उपदेशे प्रत्ययस्य आदि चुटु इतौ एतत् केवलं चुटु अस्ति खलु सूत्रं केवलं चुटु चुटु इत्युक्ते किमपि अर्थं न भवति एतत् अनुवृत्तिसहित अनुवृत्तिपदानि सन्ति अनुवृत्तिपदानि उपदेशे प्रत्ययस्य आदि चुटु इतौ इति उपदेशे आदि एते सर्वे अनुवृत्तिपदानि सन्ति तावदेव बहु सम्यक्
धन्यवादः
लक्ष्मी भगिनी अग्रिमं वदति वा
आं भगिनी नमो नमः
नमस्ते भगिनी
लशक्तत्वदिते प्रथम अध्याये तृतीयपादे अष्टम्यसूत्रः प्रचस्य आदि अमरः शकारः कवर्गः अस्ति चेत् प्रचयस्य इत्संज्ञा भवति आदि अनुवृत्तिसहितसूत्रम् उपदेशे प्रचयस्य आदि लषक् इति तद्विते अतद्विते एक तद्विते इत्संज्ञा भवति षकारः ककारः षकारः लकारः इत्संज्ञा भवति तस्य लोप लोपं भवति
समीचीनं भगिनि भगिनि समीचीनं लशक् वा अति तद्धिते लशकु लशकु अतद्धिते आर् लशक् वा तद्धिते अस्तु भगिनी बहु समीचीनं धन्यवादः हा लक्ष्मी एच् एस् भगिनी भवती वदति वा अग्रिमं
सुप्रभातं भगिनि
सुप्रभातं
संज्ञावाच्या इति एतत् वार्तिकम् अस्ति एतत् धातोः वर्णसमूहस्य इत् संज्ञा भवति न केवलम् इकारस्य रेफस्य च इत्संज्ञा न करणीयम्
पृथक् पृथक् न करणीयम् किं करणीयं पूर्ण शब्दवर्णसमुदायस्य एव इत्संज्ञा करणीयम् इर् इति वर्णसमुदायस्य नो चेत् पृथक् पृथक् करणीयेन किं भवति समीचीनं रूपं क्रियापदं न निष्पद्यते समीचीनं रूपं न निष्पद्यते अतः इर् इति वर्णसमुदायस्य एव इत्संज्ञा भवति वयं सर्वे जानीमः एतत् सर्वे वयं जानीमः तस्य लोपः अदर्शनं लोपः किम् अस्ति इति वयं सर्वे जानीमः इदानीम् अभ्यासकृते वयं गच्छामः वयं केचन कृतवन्तः इदानीम् अग्रिमं वयं कुर्मः वयम् एतत् सर्वे कृतवन्तः अत्र निच् शाकन् जूस् एतत् इदानीं पुनः एकवारम् इत् आगमः अस्ति खलु तदनन्तरं क्त्वा प्रत्ययस्य एकवारं पुनः कृत्वा अग्रे गच्छामः अस्तु एतानि सर्वाणि प्रत्ययस्य कृते सन्ति अस्तु नम्रता भगिनी भवती प्रारम्भं करोति वा क्त्वा क्त्वा इति दृश्यते के अत्र केवलं संज्ञा वर्णाः सन्ति केन सूत्रेण भवति इति वदतु भगिनि
त्वा इति अस्ति तत्र किं लशक्व तद्धिते इति सूत्रेण क इत्संज्ञा भवति अनन्तरम् इति सूत्रेण आद्यन्तौ टकितौ इति सूत्रेण इत् आगमः भवति
समीचीनम् एतत्
त्वा एव निष्पद्यते इति मन्ये
निष्पद्यते न त्वा एव अवशिष्यते
अवशिष्यते क्षम्यताम् अवशिष्यते
अतः रूपं भवति पठित्वा एतत् कृत्वा इति किं प्रत्ययः कृत् प्रत्ययः अस्ति कृत् प्रत्ययः तदनन्तरम् इट् आगमः भवति अन्यत् सूत्रस्य कारणेन इट् आगमः भवति अतः अन्तिमरूपं पठित्वा इति भवति समीचीनं भगिनि अस्तु रघु भ्राता भवान् वदति वा अग्रिमं क्त
कृत् प्रत्ययः अत्र लषकत् अतद्विते इत्यनेन सूत्रेण ककारस्य इत्संज्ञा भवति तस्य लोपः भवति केवलं तकारः अवशिष्यते
समीचीनं अन्तिम उदाहरणमपि पठतु
फट् योजने योजने
पठित अत्रापि अन्यत् सूत्रस्य कारणेन अन्येन अन्यानि कारणानि सन्ति इट् आगमः भवति इट् आगमः भूत्वा पठित इति रूपं निष्पद्यते समीचीनं महोदय सीमन्तिनी भगिनी अग्रिमं करोति वा तृच् प्रत्ययः
नमस्ते सुप्रभातं
सुप्रभातं
महोदय एकं प्रश्नम् अस्ति अत्र पठिता अस्ति पठिता किं प्रातिपदिकम् अस्ति या पदम् अस्ति अत्र
पठिता इति अव्ययम् अव्ययं कृत् प्रत्यय अव्ययं भवति त प्रत्यय अव्ययं भवति तत् न अग्रे पश्यामः महोदय किं किं
भवति
कृदन्तरूपं पठितः इति पास्ट् टेन्स् भूतकालकृते भवति
अत्र
एतत् मूलरूपं धा अस्तु खलु मूलरूपे आम् आम् आं महोदय श्रीमतिनी भगिनी
तृच् तृच् इत्युक्ते अधिकरो अधिकच् च हलन्त्यं सूत्रेण च गच्छति तत्रैव तिष्ठति अनन्तरम् इट् आगमः भवति तृ इति तिष्ठति
रूपं किं भवति
पठ् अधिक इट् इट् आगमः भवति पठ् अधिक तृच् पठितृ
एतदपि प्रातिपदिकमेव पठितृ ऋकारान्तशब्दः भवति पठितृ ओके दातृ पितृ मातृ तथा एव कर्तृ तथैव भवति पठितृ इति तृच् प्रत्ययस्य कारणे कृत् प्रत्ययः अस्ति प्रातिपदिकरूपं निष्पद्यते समीचीनं भगिनि शान्ता भगिनी
धन्यवाद अस्तु भगिनि
पठतु
तव्यत् तव्यत् तव्य योग इत् इत् अलन्तं सूत्रेण इत्संज्ञा भवति तव्य तिष्ठति पट् योग इट् आगम भवति योगस्तव्य पठित्व्य पठितव्य
पठितव्य पठितव्य इति भवति पट् योग इट् आगमः भवति अत्रापि केवलम् अत्र तकारस्य एव इत्संज्ञा भवति तदनन्तरं केन सूत्रेण तस्य लोपः भवति भवति
अलन्तं सूत्रेण अलन्तं
लो श्रूयते वा भगिनि
श्रूयते श्रूयते अलन्तं सूत्रेण भवति
समीचीनं
धन्यवादः
इति सूत्रेण तदनन्तरं तस्य लोपः इति सूत्रेण तस्य
भगिनी ऐ वास् आब्सेण्ट् फार् द लास्ट् क्लास् एक संशयः अस्ति श्रूयते वा भगिनी
सुदा
भगिनी श्रूयते वा
वयं शृणोमि परन्तु भगिनीस्य नेट्वर्क् गतं चिन्तयामि
भगिन्याः अन्तर्जालसमस्या भवति अहं मन्ये
आमां नमस्ते देवेन्द्रमहोदय कथमस्ति
सम्यक् अस्मि भवती कथमस्ति
अहमपि कुशलिनी अस्मि धन्यवादः
भवती कः का
अहं श्रीमन्तिनी सीमा नैक्
महोदय आगच्छति
न आगच्छति
पुनः त्यक्त्वा पुनः त्यक्त सम्मेलनम्
श्रूयते इण्टर्नेट् प्राब्लम् अभवत् अस्तु प्रस्तुतिः दृश्यते वा
न भगिनि
एकवारं स्क्रीन् करोमि एकवारम् इदानीं दृश्यते वा इदानीं
दृश्यते
सुधा भगिनी एकवारं पुनः वदतु भगिनि सुधा भगिनी अस्ति वा
सुधा भगिनी द्वे अपि
अग्रिमसुधा वदतु अग्रिमं सुधा वदतु पठतु भगिनि
त्वां तव
तव तु प्रत्यय वदत् तव्यत् अभवत् खलु तव तु वदतु भगिनि
तव तु उपदेशे उकारस्य अनुनासिक उकारस्य उपदेशे जनुनासिक इत्यनेन सूत्रेण तदनन्तरं तस्य लोपः भवति सकारस्य न विभक्तौ तस्माः इत्यनेन लोपः न भवति उपदेशे प्रत्ययस्य आदौ ककारः लषक्व तत्तिपे इत्यनेन सूत्रेण इच्छं न भवति तस्य लोपः भवति अतः पट् योगः इडागमः योगः तवत् इति एव अस्ति पठितवत् रूपं सिद्ध्यति इति प्रातिपदिकमस्ति
आम् आं भगिनि प्रातिपदिक बहु सम्यक् भगिनि बहु सम्यक् पठितवत् भवती वदति वा पुल्लिङ्गे किं भवति पठितवत्
पठितवत्
स्त्रीलिङ्गे पठितवती नपुंसकलिङ्गे पठितवत् एव भवति बहु समीचीनं भगिनि अग्रे सुन्दर् महोदय भवान् वदति धन्यवादः भगिनी
धन्यवादः
महोदय सुन्दर् महोदय
विच् वन्
एकवारं दृश्यते वा
दृश्यते कृत् प्रत्ययः अस्ति लषक्वत् इत्यनेन सूत्रेण ककारस्य इत्संज्ञा भवति तस्य लोप इति सूत्रेण इत्संज्ञा भवति त्वा एव अवशिष्यते
अग्रिमम् अपि करोतु महोदय अत्र द्वितीयवारम् एतत् मुद्रणदोषः अभवत् क्त्वा क्त्वा इति अग्रिमं तुमन् तुमुन् इति प्रत्ययः
तुमुञ्ज लश् न उपदेशे अनुनासिक इत्यनेन सूत्रेण अनुनासिक मकारः
मकारः वा
इत्संज्ञा भवति एकनिमिषं
नकारस्य किं भवति
अहलन्त्यम् इत्यनेन सूत्रेण नकारस्य इत्संज्ञा भवति लक्षं तु लक्षे बट् ऐ थिङ्क् दट्स् इट् सो अतः
अवशिष्यते पठितुं पठितुम् इति अव्ययम् अभवत् पठितुं तुमन्तावयः एतत् तुमन्त अव्ययः पठितुम् इत् आगमः भवति अत्रापि तुम् इति एव अवशिष्यते अत्र मकारस्य परे उकारः अनुनासिक उकारः अस्ति तस्य उपदेशे जननुनासिक इति सूत्रेण तस्य लोप नकारस्य
एकः प्रश्नः अस्ति महोदय
अस्तु
अत्र तुमुन् प्रत्ययः अस्ति तुमुन् प्रत्ययः अस्ति कृत् प्रत्ययः अस्ति तत्र मत्वे के प्रोसेस् अस्ति पाठ अधिक मत्वे अधिकम् एट् योगं तुमुन् किं कारणे अस्ति अत्र तुं किं कारणे नास्ति अत्र मूलरूपं किं कारणे अस्ति अत्र
अत्र अग्रे इदानीमेव एव वयं पठामः किमर्थम् इच्छज्ञा भवति उपदेशे किमर्थं तुम् एव न अवशिष्यते किमर्थं तुमुन् इति दत्तम् अस्ति पाणिनि महोदयः तस्य उपयोगः किं भवति एतत् सर्वे वयम् इदानीमेव अभ्यासानन्तरं वयं पठामः महोदय अद्य एव पठामः समयः अस्ति चेत् अद्य एव पठामः किमर्थं सः तुम् एव प्रतिष्ठापनं न कृतवान् किमर्थं तुमन् इति कृतवान् किमर्थं हलन्त्यम् इति सूत्रस्य आवश्यकता किमर्थम् ऊ इति संज्ञा भवति एतानि सर्वाणि अत्र दत्तम् अस्ति वयं पठामः इदानीमेव
मम प्रश्नः अस्ति किमर्थं किं कारणे अत्र न दृश्यते पठितुं
इत् आगमः भवति अन्यत् सूत्रेण तस्य तुम् एव अवशिष्यते पठि किमर्थम् इत् आगमः भवति तत् अपि एकं सूत्रम् अस्ति तत्र किमर्थम् भवति इत् किमर्थम् इडागमः किमर्थं भवति तत्र तुं केवलं किमर्थम् अवशिष्यते एते सर्वे अस्ति तत्र वयं पश्यामः महोदय इदानीम् अग्रिमं भवान् एव पठतु अग्रिमं भवान् एव पठतु युगल् महोदय एकनिमिषं शान्ता भगिन्याः प्रश्नः अस्ति शान्ता भगिनी अस्तु अस्तु न सिल्लि नथिङ्ग् भो पृच्छतु
थर्ड् वन् जूस् जूस् प्रत्याहारे पडेयुः हौ इट् बिकेम् पडेयुः
तत्र विधिलिङ्ग् लकारः अत्र विधिलिङ्ग् लकारः भवति भगिनि तत् सर्वं लकारकृते वयं पठामः धातुः लट् लकार लुट् लकार लङ् लकार विधिलिङ्ग् लकार तत्र सर्वे आगच्छन्ति केवलम् उदाहरणं दत्तम् अस्ति इदानीं मास्तु तत्सर्वं सोपानानि गच्छामः वयं
शप् यु नो शप् ओन्लि आ दृश्यते पठेयुः
पठेयुः तत् विधिलिङ्गलकारः भवति भगिनि विधिलिङ्गलकारः भवति अग्रे पश्यामः इदानीं मास्तु तत्सर्वं
धन्यवादः
युगल् महोदय पठतु एकनिमिषम् एतत् एतत् एकनिमिषम् एतत् न अभवत् खलु तुमुन् वयं हा इदानीं हा वदतु महोदय
कन् अस्तु सें प्रत्यय अस्ति तत्र तद्वित् प्रत्ययः अस्ति अत्र हलन्तं हलन्तं सूत्रेण संज्ञा भवति स सप्रत्ययस्य सूत्रेण स संज्ञा भवति य अवशिष्यते अस्तु तत्र बल् बल् योग य बाल्य अभवत्
बाल्य इति अभवत् शै प्रत्यय श प्रत्ययस्य कृते तद्धितप्रत्ययः अस्ति एतत् बाल्य इत्युक्ते कस्मिन् पदम् अस्ति भवान् अव्ययं नाम जानाति वा य अस्ति बाल्य इति
बाल्य अस्ति
लेबन्ताव्य य कुत्र अस्ति खलु तत्र लेबन्ताव्ययं न इदानीं मास्तु केवलं भवान् सर्वं जानाति अतः प्रश्नं पृष्टवती अस्तु अस्तु मूर्तिभ्रत नुल् प्रत्ययः नुल् प्रत्ययः वदति वा मूर्तिमहोदय अस्ति वा शिवा आगतवान् वा एक मूर्ति भ्राता वदति प्रथमं तदनन्तरं भवान् वदतु अस्तु शिवा भ्रत पठतु नुल्
नुल् कृत्प्रत्यय भवति पठ् युज्य
किं भवति न न अत्र इत्सज्ञकवर्णाः के के सन्ति भवान् प्रथमं वदतु
क्रु क्रु
क्रु कुत्र अस्ति भवान्
प्रारम्भे
नास्ति अत्र प्रत्ययः अस्ति नुल् अस्ति कीदृशः कीदृशः प्रत्ययः इति एतत् कृत् प्रत्ययः एतत् कृत् प्रत्ययः अस्ति तावदेव अत्र नुल् प्रत्यये के के वर्णाः इत्संज्ञकाः भवन्ति
नुल्
आदिर्नि टुडवः केवलं धातु कृते अस्ति महोदय अत्र प्रत्ययः अस्ति एतत् सूत्रस्य आदिर्नि टुडवः सूत्रस्य प्रयोजनं नास्ति अत्र अत्र कस्य सूत्रस्य उपयोगं भवति
न
न अस्ति कः सहायं करोति देवेन्द्रमहोदय सहायं करोति वा कस्य सूत्रेण नकारः
अहं न जानामि
चुटु अस्ति खलु प्रत्ययस्य कृते हा चु टु टु इत्युक्ते के के वर्णाः मूर्तिं
भरता
इति चुटु इति सूत्रेण नकारस्य इत्संज्ञा
भवति हलन्तकारणे इत्संज्ञा भवति
अतः केवलं के किम् अवशिष्यते किम् अवशिष्यते
पठवु
अवशिष्यते कुत्र कुत्र वकार नुल् प्रत्ययः अस्ति के अत्र प्रत्ययान्तशब्दानाम् अक् आदेशः भवति अन्यत् सूत्रस्य कारणेन अक आदेशः भवति अतः पाठकः अक उकारस्य स्थाने अक आदेशः भवति तावदेव अवगच्छतु अहं वदामि खलु ऊ कुत्र अवशिष्यते महोदय ऊ कुत्र अवशिष्यते ऊ स्थाने अक आदेशः भवति अत्र अन्यत् सूत्रम् अस्ति तस्य कारणेन अक आदेशः भवति तत्र पठ प प अकार अजन्त अजादि धातुः अस्ति तस्य वृद्धिः भूत्वा पाठकः इति भवति पाठक लेखक गायकः अत्र सर्वे तत् अक इति आदेशः भवति कुत्र कुत्र वकार उ अस्ति तस्य स्थाने अक् आदेशः भवति अस्तु महोदय तथैव मूर्तिं भ्राता एतत् करोति वा प्रयत्नं करोति वा ल्युट्
भगिनि तत्र ऊ तिष्ठति वा
ऊ तिष्ठति भगिनि ऊ तिष्ठति हा ऊ एव अवशिष्यते तत्र स्थाने अक आदेशः भवति
कथं गच्छति
अत्र अन्यत् एकं सूत्रम् अस्ति युवोरुनाकौ इति सूत्रम् अस्ति यत्र कुत्र यु अस्ति यत्र कुत्र उ अस्ति तस्य स्थाने अक अथवा अन आदेशः भवति इति सूत्रम् अस्ति इदानीं मास्तु भगिनि भ्रमः भवति केवलम् अत्र अवगच्छतु उ स्थाने अक आदेशः भवति तावदेव इदानीम् अस्तु भ्राता वदति वा ल्युट् प्रयत्नं करोतु न न वदति वा अस्तु गणेश कृष्णं भ्राता वदति वा शिवा पठति वा शिवा शिवा
ल्युट् प्रत्ययः तत् ल्युट् इत्यत्र इल् अनन्तरं ल्युट् अपगच्छति तत्र
केन सूत्रेण अहं
सत्यम् इति सूत्रेण अनुनासिकं भवति
अनुनासिकं कुत्र अस्ति अत्र अनुनासिकं नास्ति खलु हलन्त्यं सूत्रेण अन्तिमटकारस्य इत्संज्ञा भवति
भवति तस्य लोपः इति लोपः भवति
लकारस्य केन सूत्रेण इत्संज्ञा भवति प्रथमसूत्रमेव अहं प्रदर्शयामि अत्र पश्यतु वदतु हा भवान् न आगतवान् खलु अतः न जानाति अत्र एकनिमिषम् अहं प्रदर्शयामि अत्र
उपदेशे
न न न न एतत् सूत्रस्य प्रयोजनं नास्ति क्षम्यताम् अत्र एतत् सूत्रं ल्युट् अस्ति खलु ल्युट् अस्ति ल अस्ति प्रथमं लशक्व तद्धिते अथवा लशकु अतद्धिते लशकु अतद्धिते पदच्छेदः कृतवान् चेत् लशकु अतद्धिते अथवा लशक्व तद्धिते इति सूत्रेण किं भवति
लकारस्य भवति
तदनन्तरं किं भवति
तस्य लोपः इति लोपः भवति
तस्य लोपः बहु समीचीनं एकवारं पुनः
अस्तु माता
किम् अवशिष्यते शिव किम् अवशिष्यते
यु इति अवशिष्यते माता
यु अस्ति चेत् तत्र युकारस्य स्थाने अन आदेशः भवति
अतः पठनम् इति पठ योगः ल्युट् पठनम् इति भवति
अत्र उपरि पश्यतु उ आसीत् ततः अक आदेशः अभवत् अत्र यु अस्ति अतः तस्य स्थाने अन आदेशः भवति अस्तु एकवारं पुनः सर्वेषां कृते वदतु ल्युट् प्रत्ययस्य
प्रत्ययः तत् लुट् प्रत्ययस्य टकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण लोपः भवति, अनन्तरं लकारः दशक्व तद्धृते इति सूत्रेण लकारः अपि अनुना इत्संज्ञा भवति, अनन्तरं तस्य लोपः इति सूत्रेण लकारस्यापि लोपः भवति, तदा यू इति अवशिष्यते, तस्य स्थाने अन् इति एकः आदेशः, अतः पठनम् इति पठ् योगः ल्युट् प्रत्ययः पठनम् इति आदेशः अवशिष्यते।
पद्माभगिनी, रघुचक्रवर्ती, कृपया म्यूट् मध्ये तिष्ठतु सर्वे, सर्वे म्यूट् मध्ये तिष्ठतु सर्वे। அஸ்து சிவா பகு
சமை இல்ல அது இல்ல அதாவது நானும் அம்மாவும் இருந்தேன்னா நான் காபி போட மாட்டேன் இப்ப காபி டிகாஷன் போட்டிருந்த
அஸ்து அகமேவ கிருத்தவதி அஸ்து நந்தரம் கசிய அஸ்தி இதானிம் சந்திரமதி தன்யவாத சிவா சந்திரமதி பகினி பவதி பட்டதி வா சுன் பிரத்யாக
जिन् प्रत्ययः तत्र नकार हलन्त्यं सूत्रेण नकारस्य अन्तिम नकारस्य संज्ञा भवति, तस्य लोपः सूत्रेण लोपः भवति,
किं किम् अभवत् भगिनि
योगः क्यू
क्रु क्रु हा क्रू योग क्युन् ककारस्य किमर्थम् इत्संज्ञा अभवत्, केन सूत्रेण अभवत्, ककारस्य कस्य सूत्रेण इत्संज्ञा भवति भगिनि?
शाखा अस्ति तद्
ख अस्ति, कस्य सूत्रेण
लशकृतत्वेन सकारस्य संज्ञा भवति, तस्य लोपः सूत्रेण लोपः अपि भवति, अनन्तरम् अवशिष्य यु एव अवशिष्यति।
यु कुत्र अस्ति तत्र किम् आदेशं भवति? अहम् उक्तवती अन अन इति आदेशं भवति, यु अवशिष्यते खलु, अत्र अन आदेशः भवति, अतः आढ्यकरणम् आढ्यकरणम् इति रूपं निष्पद्यते। अस्तु, अवगतं खलु? हा, यु कुत्र
अवशिष्य एकवारमपि वदति वा भगिनि?
यत्र कुत्रापि व अस्ति चेत् अक आदेशः भवति, व उ कुत्र अवशिष्यते तत्र अक आदेशः भवति, यत्र यु अवशिष्यते तत्र अन आदेशः भवति, अत्र यु अवशिष्यते खलु, खकारस्य लशकृ, अतः यु स्थाने अक अन आदेशः भवति।
यु स्थाने का पाठक तत्र का
अक अक आदेशः अभवत्, तत्र अक आदेशः अभवत्,
अत्र अपि यु स्थाने भवति
वा? आं भवति, आं भगिनि, उ स्थाने एव अक आदेशः भवति, अत्र यु स्थाने अन आदेशः भवति,
यु उ स्थाने अक आदेशः भवति, यु स्थाने अन आदेशः भवति।
आं भगिनि, अतः रूपं निष्पद्यते आढ्यकरणम्,
आढ्यकरणम् इति भवति। तत्र हलन्त नकारस्य लोपः भवति, खकारस्य लोपः अपि भवति, अनन्तरं यु अवशिष्यते, यु अन इति रूपं स्वीकरोति, अतः आढ्य करणम् करणम् इति रूपं भवति।
आम् समीचीनं भगिनि, समीचीनम्, अवगतं खलु?
आद्यकरणं किम् अस्ति?
आढ्यकरणं करणं खल् यु अन आदेश रु अस्ति खलु अत्र अत्र अन्यत् एन्रिचिङ्ग् एन्रिचिङ्ग् इस् द अर्थम् अत्र दत्तम् अस्ति खलु आढ्यम् अत्र धनि अत्र ऋकारस्य अन्यत् एकं सूत्रं भूत्वा उरणरपरः इति सूत्रेण अत्र तत् यु युकारस्य कृते महोदय अत्र क्रु रु अस्ति खलु रु तत्र रु कर् इति कथम् अभवत् कर् इति कथम् अभवत् तत् न अत्र तत्र अन्यत् एकं सूत्रम् अस्ति उरण्परः यत्र कुत्र रु अस्ति तस्य तत् कर् भवति तदनन्तरम् अन् करणम् आढ्यकरणम् इति अभवत् इदानीम् अस्तु अस्तु गणेशकृष्णमहोदय भ्राता वदति वा अग्रिमं शन्
अग्रिमं शन् विकरणप्रत्ययः लशक्वदधिते इति सूत्रानुसारं श संज्ञा भवति यन् एव अवशिष्यते तत्र हलन्तव्यम् इति सूत्रानुसारम् अन्यत् अपि संज्ञा भवति य अवशिष्यते तस्मात् नृत्यन् तिक् य तिक् भवति नृत्य इति भवति प्रत्यये अपि उपकारस्य इत्संज्ञा अस्ति हलन्तव्यम् इति सूत्र सिद्ध्यते
बहु समीचीनं महोदय मम एकः प्रश्नः अस्ति शन् इति कस्य गणस्य प्रत्ययः य इति अवशिष्यते भवान्
दिवादि वा
समीचीनं समीचीनं दिवादिगणे एव अस्ति अतः य एव अवशिष्यति नृत्यति इति भवति बहु समीचीनं महोदय नृत्यति इति रूपं क्रियापदं निष्पद्यते अस्तु ऋषिकेश भ्राता अग्रिमं पठतु किञ्चित् उच्चैः महोदय भवतः मैक् ध्वनिवर्धस्य दोषः अस्ति के के वर्णाः इच्छन्त्या भवति भ्राता न श्रूयते भ्राता न श्रूयते अस्तु किम् अभवत् अत्र उ किम् अवशिष्यते न श्रूयते अस्तु के वि भ्राता भवानेव पठ वदतु
शून् कृत् प्रत्ययः अस्ति अत्र शकारस्य लोपः भवति शः प्रत्ययस्य सूत्रे तत् परे वु अन्ते नकारः अस्ति नकारस्य हलन्त्यं सूत्रे इत्संज्ञा भवति वु अवशिष्यते वु द्वयं सूत्रमस्ति तत् कारणे वु अक् भवति उदाहरणम् अत्र नृत् योगा शून् वुकारस्य अक् भवति नृत् रि गुण भवति नर्तक
क्रियापदम् अस्ति प्रत्ययः सोरि प्रत्ययः अस्ति
प्रातिपदिक
प्रातिपदिकमस्ति सोरि
आम् महोदय अत्रापि उ अवशिष्यते उ स्थाने अक आदेशः भवति अक आदेशः भवति नर्तक पाठक वयं दृष्टवन्तः इदानीं गायक लेखक अक् कुत्र कुत्र उ अस्ति तत्र अक् उ स्थाने अक आदेशः भवति अतः नर्तक इति प्रातिपदिकं निष्पद्यते समीचीनं
धन्यवादः
लक्ष्मी भगिनी लक्ष्मी पठति वा अग्रिमं
भगिनी तिन् प्रत्यय अत्र तिन् प्रत्यय नकारः हलन्त्यमात्रेण इस्संज्ञा भवति लषक् लषक्वते सूत्रेण ककार इत्संज्ञा भवति एव भविष्यति कृ कृति
समीचीनं भगिनि स्त्रीप्रत्ययाः सन्ति स्त्री कृति गति मति शक्ति कीर्ति तत्सर्वे स्त्रीप्रत्ययाः शब्दाः कृ अस्ति अतः कृति इति स्त्रीलिङ्गरूपं निष्पद्यते प्रातिपदिकं स्त्रीप्रत्यय कृति अस्ति अस्तु भगिनि स्त्रीप्रत्ययः हा समीचीनं भगिनि समीचीनं लक्ष्मी एच् एस् भगिनि अग्रिमं करोतु
प्रथमवर्णः केन सूत्रेण लोपः भवति क लोपः भवति
धन्यवादः एकनिमिषं भगिनि ककारस्य लित्संज्ञा भवति नकारस्य हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति केवलम् इति अवशिष्यते कृति इति भवति अस्तु समीचीनं भगिनि भवती समीचीनतया उक्तवती अस्तु लक्ष्मी एच् एस् भगिनि अग्रिमम्
आं भगिनि शानच् प्रत्यय शानच् कुत् प्रत्ययः अस्ति लटकुतद्दिते इति सूत्रेण शकारस्य लोप इत्संज्ञा भवति हलन्त्यं सूत्रेण चकार इत्संज्ञा भवति तस्य लोपेन तस्य लोप इति सूत्रेण लोपः भवति आना इति वशिष्यते
तदनन्तरम् अन्यसु कारणेन तस्य मान इति भवति पठ्यमान कारणेन तत्र पठ्यमान इति भवति कुत्र कुत्र शानच् इति आत्मने भूतकालकृते अस्ति शत्रुप्रत्ययः वर्तमानकृते अस्ति वर्तमान आत्मनेपदि भूतकालकृते शान प्रत्ययः भवति समीचीनं भगिनि
धन्यवादः तस्य लोपः कस्य लोपः भवति तस्य
लोपः
चकारस्य हलन्त्यं नास्ति वा
हलन्त्यम् इति सूत्रेण तस्य संज्ञा भवति तदनन्तरं तस्य लोपः भवति अस्तु भगिनी एकवारं पुनः वदतु हा लक्ष्मी भगिनी एकवारं पुनः स्पष्टं करोतु
लषकु तद्धिते इति सूत्रेण शकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण चकारस्य इत्संज्ञा भवति तस्य लोप इति अनेन सूत्रेण लोपः भवति आना इति वशिष्यते पट् योग यक् योग शानच् इति पठ्यमाना पठ्यमाना इति शानत् प्रत्यया अस्ति भूतकृदन्त अस्ति आत्मनेपदी अस्ति
आत्मनेपदी पाठ्यमान इति भवति भूतकृदन्तः भवति पाठ्यमान अवगतं खलु
धन्यवादः नम्रता भगिनि अग्रिमं करोतु
अनियर् कृत्प्रत्ययः हलन्त्यम् इति सूत्रेण र इत्संज्ञा भवति अतः अनीय एव अवशिष्यते
बहु समीचीनम् अत्र किमपि अधिकं नास्ति केवलं रेफस्य हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति तस्य लोपः भवति पठनीय करणीय वदनीय लेखनीय इति रूपं निष्पद्यते अस्तु धन्यवादः भगिनी पद्मा भगिनी
नमस्ते भगिनि
नमस्ते भगिनि पठतु
शत्रुकृत् प्रत्ययः अन्ते वर्तमान ऋकारः अनुनासिकनुकारः उपदेशे अजनुनासिक इति सूत्रेण इत्थम्या भूत्वा तस्य लोपः इति सूत्रेण अदर्शनं भवति शकारः लशक्व तद्धिते इति सूत्रेण संज्ञा भवति तस्य लोपः इति सूत्रेण अदर्शनं भवति अकार एव तिष्ठति शत्रुप्रत्यय पट् योगे अयोगे शत्रुप्रत्यय पठत्
आम् आम् सर्वे जानन्ति खलु शप् आकृतिः अ इति आगच्छति आकृतिः पठत पठत इति रूपं निष्पद्यते कृत् प्रत्यय प्रातिपदिकं पठत इति भवति अस्तु भगिनि बहु समीचीनं
मुद्रणदोषमस्ति वा
हा मुद्रणदोषः अस्ति मुद्रणदोषः अस्ति पठत हलन्त्यं दण्डः अस्ति मुद्रणदोषः महोदय अस्तु अग्रे कः अस्ति पद्मनाभन् भ्राता घञ् प्रत्ययः अस्ति वा
महोदय मुद्रणदोषं किं कारणम् अस्ति अत्र पठत् अस्ति
पठत पूर्णं तत् अर्ध दण्डः अस्ति खलु अत्र दण्डः दण्डः न भवति अत्र पठ शप शप् इति मुद्रणदोषः तत्रापि न भवति पठत भवति एव पठत एव महोदय मुद्रणदोषः कुत्र भवान्
मुद्रदोषं तु नास्ति हलन्तं भवति कारणं किं कारणं किं के सत्रम् अस्ति सत्रंश त्रि अस्ति त्रि मध्ये कि अच् अच् अस्ति त्रि मध्ये अत्र उपदेशजनो नासीत् इति मध्ये संज्ञा अभवत् अस्ति सा अपि मध्ये तत्र मध्ये लसक्तद्वितीये संज्ञा अभवत् अस्तु अत अस्ति अत् अस्ति अत् कारणमपि हलन्तं भवति
आम् आम् आं महोदय आं समीचीनं भवान् समीचीनं सम्यक् सम्यक् अस्ति
धन्यवादः
अस्तु पद्मनाभन् भ्राता न वक्तुम् इच्छति वा रघुचक्रवर्ती भवान् पठतु अग्रिमम् सीमा भगिनी घञ् प्रत्यय
घञ् दशक्वतद्धिते इत्यनेन सूत्रेण घकारस्य इत्संज्ञा भवति लोप इति सूत्रेण तस्य लोपः अपि भवति केवलं न अवशिष्यते न भवति
न भवति किमर्थं न भवति
नकारस्य
हलन्त्यम् इति सूत्रेण भवति खलु हलन्त्यम् इति सूत्रेण
आम् आम् इत्संज्ञा भवति किम् अवशिष्यति?
आम् आम् अत्र गुणः भूत्वा रुज् रोग इति भवति. अन्यत् सूत्रकारणेन गुणः भवति रोग इति भवति. अस्तु, घञ् प्रत्ययः अ एव अवशिष्यते. तत्र घञ् प्रत्ययः अत्र अ अवशिष्यते. घकारस्य लशकु तद्दिते इति सूत्रेण इत्संज्ञा भवति. ञ अपि हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति. अ एव अवशिष्यते. अतः रोग इति अन्यत् कारणेन रोगगुणः भूत्वा रोग इति भवति, रूपं निष्पद्यते. अस्तु महोदय. हा, पूर्ण पूर्ण घ योगे अ अस्ति खलु अत्र. घ योगे अ अस्ति. अ अवशिष्यते.
केवलम् अकारः.
आं महोदय. श्रीमन्तिनी भगिनी अग्रिमं पठतु.
णीणि णिनि इति तद्धित् प्रत्यय अस्ति. न अधिक इ अधिक न अधिक इ अधिक चन्द्रबिन्दि.
आम् आम्, अनुनासिक इकारः अस्ति.
अनुनासिक इकारः, अनुनासिक इकारः तस्य
सूत्रं किम्?
एकनिमिष,
प्रथमसूत्रमेव प्रथमसूत्रमेव.
जनुनासिक तत् उपदेशे जनुनासिकसूत्रेण गच्छति, लोपो भवति. अनन्तरं न अधिक न गच्छति हलन्त्यं सूत्रेण. हलन्त्यं न गच्छति,
न गच्छति अत्र. न प्रथमणकारस्य किं गतिः, का गतिः नकारस्य?
प्रथमणकारस्य तदेव अहं चिन्तयामि किमस्ति.
प्रदर्शयामि एकवारं, पश्यतु अत्र, भवती एव वदतु. अहं दृश्य एकनिमिषम्. हा, अत्र किं के वर्णाः सन्ति पश्यतु. अत्र
चूटु अस्ति, तर्हि चूटुसूत्रेण ऋण अपि गच्छति. तर्हि ई तिष्ठति, ह्रस्व इ तिष्ठति.
इन् हलन्त्यम् इ, हा, इन् इन् अवशिष्यते. अतः रोगिन् रोगिन् इति भवति. इ इन् न अन्ते न हल् अन्ते नास्ति खलु, न तदनन्तरं नकारस्य परे अस्ति इ अनुनासिक. तस्य इन् तिष्ठति, अतः रोगिन् इति रूपं निष्पद्यते. एकवारं पुनः वदतु एकवारं.
आम् तर्हि अनुजनुनासिकसूत्रेण तस्य लोपः.
एकवारं सूत्रं वदतु, प्रथमसूत्रं वदतु.
उपदेशे जनुनासिक तत् सूत्रेण ई तस्य इत् भवति. न अधिक इ अधिक न तिष्ठति. न तस्य चूटु कारणेन न तस्य लोपः भवति. अनन्तरम् इन् तिष्ठति, इन् अस्ति स्वरूपं. तर्हि रुज् अधिकीनि रोगिन इति सिद्धरूपं,
रोगिन इति रूपं निष्पद्यते. समीचीनम्, अवगतं खलु
महोदय? एकं प्रश्नमस्ति अत्र. उपरि अस्ति पठ, सत्रिं सत्रिं प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति किम्? अस्तु, अथ पठ योगं सप् किं कारणे अस्ति? सप्तो किं
शत्रुप्रत्ययः अस्ति, कुत्र कित् अस्ति?
कृत् प्रत्ययः अस्ति तु सत्रि.
कृत् प्रत्ययः अस्ति आम्
कृत् प्रत्ययः अस्ति तत्र सत् किं कारणं व्यकरणं किं कारणम् अस्ति अत्र
कुत्र भवान् एव वदतु भवान् जानाति भवान् वदतु
आम् कारणं कृदन्ते कृतं प्रत्यये मध्ये तत्र मध्ये विकर्णेन न भवति
अत्र विकर्णप्रत्ययः शकार्षित् अस्ति खलु अतः शप् आगच्छति शकारः अस्ति शत्रुप्रत्ययः श अस्ति षित् अस्ति अतः शप् आगच्छति तत्र कुत्र षित् अस्ति तत्र शप् आगच्छति एव शकारः शत्रु श
कीर्दन्त प्रत्ययः अस्ति कीर्दन्त प्रत्यये सङ्गे विकर्ण भवति
विकर्णप्रत्ययः किमर्थं न भवति शप् किमर्थम् आगतं
कारणं किं तिङ् चित् सार्धातुकम् सार्धधातुकमस्ति अत्र सप् न भवति
तावदेव अहं वदामि एतत् आर्धधातुकं नास्ति कि कुत्र कुत्र षित् अस्ति तत् सार्वधातुकं तिंषित् सार्वधातुकं तिंषित् सार्वधातुकम् इति सूत्रमस्ति खलु तिंषित् शकार कुत्र 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 तत्र शकार कुत्र कुत्र सार्वधातुकधातुः भवति कुत्र शकारः षित् अस्ति तत् शप् विकरणप्रत्ययः आगच्छति एव
अत्र सार्धातुकं सार्धातु कृत् प्रत्ययः अस्ति सार्धातु कृत् प्रत्ययः अस्ति सो कृत् प्रत्यये सङ्गे विकर्णो न भवति कदापि न भवति
शीत अस्ति इति आगच्छति एव आगच्छति शत्रु
उदाहरणं कुत्र अस्ति
उदाहरणं वयम् अग्रे पठामः महोदय इदानीम् अहं न विस्मरामि इदानीम् अहं
उदाहरणानि सन्ति तत्र
गच्छत् पठत् गच्छत्
पठत् अस्ति
आं महोदय आगच्छति तत् किम् अहं न अवगतं भवतः प्रश्नः किम् इति
अत्र सब् विकर्ण प्रत्यय प्रयुज्य तत्र भवति यत्र यत्र तिङ् 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 सित् तिङ् भवति तिङ् सङ्गे विकर्णप्रक्रिया भवति विकर्णप्रक्रिया अपि भवति विकर्णप्रत्ययः अपि मध्ये प्रयुज्यं भवति अत्र तिङ् नास्ति
अत्र शत्रु षित् अस्ति शत्रुपत्र शकारः अस्ति शप् अस्ति षित् अस्ति षित् अस्ति अत्र
किं कारणे
शप् इति आगच्छति एव यत्र कुत्र षित् अस्ति तत्र शप् प्रकरण तत् किमर्थं भवति इति वयम् अग्रे पठामः
एकं निमिषं महोदय एकं निमिषं महोदय सत्री सत्री अस्ति अत्र सत्री मध्ये कि स इति संज्ञा भवति रीकार इति संज्ञा भवति अत् भवति योगत् अत् भवति अत्र सो सप् सप् अपि अभवति सो आ भवति सो अत्र मध्ये आतु न भवति सो तत् कारणं मन्यते
अत्र पश्यतु
सत् किं कारणे अत्र
शत्रुकारणेन षित् अस्ति अत्र गुणः न भवति केवलं पकारः नास्ति शत्रु एकनिमिषम् वदामि एकनिमिषं यत्र कुत्रापि षित् अस्ति तत्र शप् विकरणप्रत्ययः आगच्छति अतः अ इति अवशिष्यते तस्य आकृतिः किम् अ भवति अत्र शकारस्य लशकुतदिते इति सूत्रेण तस्य इत्संज्ञा भवति ऋकारस्य उपदेशे जनुनासिक इतसूत्रेण तस्य लोपः भवति केवलं त इति अवशिष्यते अत्र पठ अस्ति तस्य अ मिलित्वा पठत पठत् इति रूपं निष्पद्यते तावदेव किमस्ति अत्र
महोदय अत्र वक्तुम् इच्छामि किन्तु लकारे तत् लकारे सङ्गे एव विकल्पः भवति अत्र सत्रि कोऽपि लकारे नास्ति कोऽपि लकारे नास्ति महोदय
कृदन्तरूपं भवति कृदन्तरूपं भवति
कृदन्तरूपम् अस्ति कृदन्तरूपं सूत्र नास्ति तत्र मध्ये विकर्ण अपि भवति
आम् 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 महोदय अत्र कुत्रचित् अस्ति तत्र शप् विकर्णप्रत्ययः आगच्छति एव शक्चित् अस्ति चेत् शप् भवति शत्रु शानच् प्रत्ययः सार्वधातुकप्रत्ययः इति निर्देशम् अस्ति शत्रु शानच् सार्वधातुकप्रत्ययाः अतः षित् अस्ति चेत् शप् विकरणप्रत्ययः आगच्छति तस्य रु आकृतिः भवति अ अतः पठत् पठत इति भवति अस्तु शान्ता शान्ता भगिनी
भगिनी एकशङ्कमस्ति नी प्रत्यये आदि आद आदिः नी अस्ति आदिर्निटुडव इति सूत्रम् उपयोगं कर्तुं शक्यते वा
न भगिनि घञ् प्रत्ययः अत्र चुटु इति सूत्रेण भवति भगिनि चुटु इति हा न प्रत्ययस्य आदौ नि आदिर्निटुडवः केवलं धातोः कृते धातु एतत् निनि इति धातु नास्ति प्रत्ययः अस्ति खलु तद्धित प्रत्ययः अस्ति अतः तस्य आदिर्नुटुडवः प्रयोजनं नास्ति अत्र चुटु इति सूत्रेण तस्य लो इत्संज्ञा भवति अस्तु
अवगतं धन्यवादः
शान्ता भगिनी भवती एव वदतु अग्रिमं क्लुक्कन्
क्लुक्कन् क्लुक्कन् कृत् प्रत्ययः इक् इक् वर्णः इत्संज्ञा भवति लशक् वदति ते सूत्रेण
समीचीनतया वदतु सूत्रं समीचीनतया वदतु भगिनि लशक्
उपदेशे इत्यस्य आदिः लशकृत अत्यत्ते
लशक्व तद्दिते तद्दित तद्दित प्रत्यय लशक्व तद्दिते
लशक्व तद्दिते इत्सूत्रः लोपः भवति इत्संज्ञा भवति
कस्य वर्णस्य कस्य वर्णस्य
इक्लुकन् वर्णस्य
क्लुक ककारस्य
ककारः लोपः भवति लुकन् दृश्यते बि योग लुकन् लुक
अत्र अत्र एकम् अंशः अस्ति धातुरूप पाठे दत्तम् अस्ति अत्र लकार ककारस्य उपरि अनुनासिक अकारः अपि अस्ति भगिनि अत्र मुद्रणदोषः अस्ति किम् अहं न जानामि तस्य अकारस्य अपि इत्संज्ञा भवति तदनन्तरं न इति कस्य सूत्रेण इत्संज्ञा भवति
अलन्तं सूत्रेण
अनुनासिक अकारस्य केन सूत्रेण भवति
अनुनासिक
ककारस्य उपरि चन्द्रबिन्दुः अस्ति अत्र न दृश्यते
उपदेशे अनुनासिकसूत्रेण
आम् आम् केवलं किम् अवशिष्यते
केवलं लुक् 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 अवशिष्यते
बिलुक अत्र अत्र मुद्रणदोषः अस्ति अत्र मुद्रणदोषः अस्ति ककारः पूर्णककारः नास्ति बिलुक हलन्त्यम् समीचीनं भवति अत्र पश्यतु सर्वे क्लुकुन् ककारस्य लशकु तद्दिते इति सूत्रेण इत्सद्या भवति ककारस्य परे अ अस्ति अनुनासिक अकारः अस्ति तस्य उपदेशे जनुनासिक इति सूत्रेण इत्सद्या भवति नकारस्य अन्तिमं हलन्त्यम् इति सूत्रेण तस्य इत्सद्या भवति लुक इति अवशिष्यते भिलुक् भिलुक् इत्युक्ते टिमिट् इति अर्थः अन्तिमरूपं भिलुक् इति प्रातिपदिकं निष्पद्यते अस्तु शिवा
भवान् करोति वा अग्रिमम् शिवा लच् 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 किमपि नास्ति अत्र
तद्धितप्रत्ययः अत्र चकारः हलन्त्यम् इति सूत्रेण उत्पन्न भवति तस्य लोपः इति चकारः लोपः भवति चूडायोगः लच् चूडाल इति अवशिष्यते
आम् आम् अत्र अपि चूडाल इति अवशिष्यते ल लकारस्य ल चूडाल इति पक्षि चूडाल चूडा इत्युक्ते उपरि अस्ति खलु चूडा इति क्रौन् कुक्कुटस्य उपरि हा तावदेव शिरसि चूडा वर्तते चूडा अस्ति चूडा लाक् आफ् हेर् अपि अस्ति कुक्कुटस्य उपरि अस्ति खलु तत् अपि चूडा इति हा वदन्ति अस्त लच् इति ल एव अवशिष्यते चूडाल इति रूपं निष्पद्यते समीचीनं शिवा धन्यवादः सुधा मेहता भगिनी पठति वा
तत्र मयूरः मयूरस्य उपरि
मयूर अपि आम् आम् चूडा अस्ति खलु मयूरस्य अपि आम् समीचीनं पुत्र सुधा नर्स श्रीनिवास सुधा मेहता भगिनी पठतु
भगिनी क्षम्यतां संशयः अस्ति तत्र लच् इति अस्ति किल तत्र लशत्कोटे इति सूत्रेण ल न संज्ञा भवति
किमर्थं न भवति इति वदतु
अहं न जानामि
तद्धितप्रत्ययः अस्ति तद्धित बहु समीचीनं प्रश्नः तद्धितप्रत्ययः अस्ति चेत् तस्य लोपः न भवति अतद्धित अस्ति अस्ति चेदेव भवति खलु तद्धितप्रत्ययः अस्ति अतः न भवति अत्र अपि मम प्रश्नः अस्ति क्लुकुन् कः उक्तवती शान्ता भगिनी उक्तवती वा क्लुकुन्
जी भगिनि
लुक् इति अवशिष्यते भगिनि अत्र ककारस्य अत्र लुक् इति अवशिष्यते लु लकारस्य लश कुतदिते इति सूत्रेण इत्संज्ञा भवति वा तत्र किमर्थं न भवति भि लुक् लुक् ल अस्ति खलु अत्र किमर्थं न अभवत् ल अस्ति चेत् लश कुतदिते इति सूत्रेण भवतु खलु
अदित् अदित् आदिसूत्रवर्णं नास्ति
आदिवर्णम् इत्युक्ते समीचीनं भवती जानाति समीचीनतया न वक्तुं शक्यते तावदेव अत्र पश्यतु कः वदति लकारस्य ल ल इत्संज्ञा न भवति लशकुतदि इति सूत्रस्य उपयोगः न भवति अत्र लुक् अस्ति किमर्थं कः वदति
वदामि वा
आदिवर्णक् आदिवर्ण फस्ट् इनिशियल्
उपदेशे अवस्थायाम् उपदेशे अवस्थायाम् इति वदतु भगिनि उपदेशे अवस्थायां युगल् महोदय भवान् वदतु तदनन्तरम् अहं वदामि
महोदय लक्षक तद्यते तु आदिर्मध्ये वर्ण भवति तर्हि कार्यं करोति तत्र तु आदिवर्णस्ति नास्ति ल अत्र दुःख अस्ति लसक्त्वदिते कार्यं करोति कवर्णे न किल
उपदेशे अवस्थायाम् एव प्रत्ययस्य एतस्य इत्संज्ञा भवति सर्वे जानन्तु पुनः पुनः तस्य इत्संज्ञा न भवति एकवारमेव भवति सूत्रेण ककारस्य इत्संज्ञा अभवत् अत्र ल लुक् इति अवशिष्यते तस्य पुनः न भवति उपदेशे अवस्थायाम् एकवारं ककारस्य इत्संज्ञा अभवत् अतः लकारस्य इत्संज्ञा न भवति तावदेव
अवगतं खलु
एकवारम् एव भवति अस्तु अस्तु सुधा मेहता भगिनी अग्रिमं पठति वा
अहं न जानामि
न जानाति वा अस्तु सुधा नरसिंहन् श्रीनिवासन्
आं भगिनि कन् इति कथितप्रत्ययः अस्ति अत्र नकारस्य हलन्त्यम् इति सूत्रेण इत्सर्गः भवति तस्य लोपः भवति कर्णयोगः इडागमः योगः खन् अत्र कर्णिक इति अवशिष्यते कर्णिक इति कथित प्रत्ययः प्रातिपदिकम्
अस्ति बहु समीचीनं कर्णिक इति रूपं निष्पद्यते अत्र नकारस्य कर्णिक अवगतं खलु सर्वेषां कृते
भवती वदतु
हा एकवारं पुनः वदतु भगिनी एकवारं पुनः वदतु अहमपि वदामि एकवारं
कन् इति तद्धितप्रत्ययः अस्ति अत्र नकारस्य हलन्त्यम् इत्यनेन सूत्रेण इच्छा भवति तस्य लोपः भवति कर्णयोगः इक् योगः कन् कर्ण इमः भवति अतः कर्णी भवति अन्तिम कण् ककारः एव अस्ति का एव अस्ति कर्णिकरूपं सिद्ध्यति
समीचीनं किं किम् अवगतं न अवगतं श्रीमन्तिनी भगिनी भवती वदतु
तद्धित् अस्ति इत्युक्ते लशकु न भवति
लशकु न भवति लशकु न भवति अत्र हा केवलं हा तद्धितप्रत्ययः अस्ति अतः न भवति तावदेव न नकारस्य केवलं हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति तावदेव तत्र किमपि नास्ति अस्तु सुन्दरं भ्राता अग्रिमं करोति वा अट् आगमः
अट् आगमः वदामि अट् हलन्तिव्यत्यस्य सूत्रेण टकारः भवति आ एव तिष्ठति अट् योगे पट् योगे शप् योगे थ आ पठ शप् अस्ति आ पठ अथ पठ इति अवश्यम्
कुतः आगच्छत अ कुतः आगच्छत् अत्र
किमर्थं
प्रथमं कुत्र आगच्छति अत्र शप् प्रत्ययस्य कृते ठ ठकारः पूर्ण ठकारः अभवत् ठ अभवत् अ किमर्थम् आगतम् अत्र पठनन्तरं शप् अस्ति खलु पठनन्तरं शप् अस्ति पठत किमर्थम् अ अत्र
एव तिष्ठति अट् एव तिष्ठति
आगमः अट् आगमः अस्ति आगमः आगमः मीन्स् कमिङ्ग् टु युर् हौस् कमिङ्ग् टु युर् हौस् सो इट् केम् टु द पट् टु द गृहम् अ आगच्छति अत्र टकारस्य इत्संज्ञा भवति अ एव अवशिष्यते भूतकाल लङ् लकार अपठत् अगच्छत् अलिखत् अभवत् इति अकारस्य लङ् लकारस्य कृते आगच्छति यत्र कुत्रापि टकारः इत्संज्ञा भवति तत्र आगमः आद्यन्तौ टकितौ आदिः आदिः आगच्छति अकारस्य आदेशः आदिः भवति ककारः कुत्र गच्छति तत्र कक्कित् अस्ति तत्र अन्ते प्रत्ययस्य अन्ते भवति किन्तु टकारः टित् अस्ति तत्र प्रथमम् आगच्छति अ इति हा अकार टित् अस्ति चेत् तस्य आगमं प्रथमं भवति अपठत् अभवत् अगच्छत् लङ्लकारस्य रूपाणि भवान् जानाति खलु अपठत् अपठताम् अपठन् इति अट् इति प्रत्ययस्य तित् अस्ति अतः प्रथमम् आगच्छति अ इति आदेशः भवति क्षम्यताम् आगमः भवति आदेशः नास्ति आगमः भवति अस्तु
गणस्य मूलरूपं मिलित्वा एका कारिका अस्ति किल भवान् न जानाति किल
अहं न जानामि कारिका नाम न जानामि युगल् महोदय भवान् जानाति वा
इति
नास्ति नास्ति अत्र आद्यन्तौ टकितौ सूत्रं कार्यं करोति आद्यन्तौ टकितौ सूत्रं कार्यं करोति भगिनी तत् नास्ति आद्यन्तौ टकितौ टित् अस्ति आदिः आगच्छति आदिः आगच्छति अतः अ आदिः आगच्छति पट् धातोः पूर्वमेव आगच्छति आद्यन्तौ टकितौ इति सूत्रेण अकारः आगमः भवति अपठत् इति रूपं निष्पद्यते क्रियापदस्य अस्तु आद्यन्तौ टकितौ इति सूत्रम् अस्ति अस्तु युगल् महोदय भवान् करोतु न तुक् तुक् अस्ति
तुक् तुक् अस्ति तुक् मध्ये अत्र हलन्तं सूत्रेण एम् उपदेशजनौ नासिक्यते सूत्रेण यत् संज्ञा भवति तत् तस्य लोपेन सूत्रेण लोपः भवति त अवशिष्यते अस्तु तत्परं गम् अस्ति सप् अस्ति तिप् अस्ति गम् अत्र क सूत्रेण च भवति सूत्रेण च भवति तो गच्छति भवति च मध्ये अस्ति मध्ये अस्ति अत्र किं कारणे अत्र तुक् तुक् स किं कारणे मध्ये अस्ति न जानामि
मध्ये आगच्छति तत् हल् सन्धेः सूत्रम् अस्ति अन्यत् एकं यत्र कुत्रापि छकारः परे अस्ति चेत् तत्र तु कागमः भवति छकारः परे अस्ति मध्ये टकारः आगच्छति टकारस्य तदनन्तरं टकारस्य परे छकारः अस्ति श्चुत्वसन्धिः भवति अतः गच्छति इति गच्छति इति रूपं निष्पद्यते तु कागमः भवति आगमः आदेशः नास्ति एतत् आगमः भवति चकारः यत्र कुत्रापि अस्ति तस्य तुक् आगमः भवति तकारस्य परे छकारः अस्ति छकारस्य परे छकारः अस्ति कारणेन श्चुत्वसन्धिः भवति अग्रे पठामः सन्धि कृते वयम् अग्रे पठामः
तुक् आगम् अस्ति मध्ये किं कारणे अस्ति किं सूत्रेण मध्ये अस्ति
मध्ये तुक् आगमः इति सूत्रमेव अस्ति तुक् आगम चकारस्य परे अस्ति चेत् तुक् आगमः भवति
तर्हि तुक् आगमः भवति पूर्वं आगमः भवति
आगमः भवति अस्तु अन्तिमं कः अवकाशं न
प्राप्तमपि वदति वा प्रक्रिया
गच्छ अस्ति गच्छ गच्छ गम् धातुः अस्ति तद् गच्छ आदे मकारः कुत्र अस्ति तत्र छकारः आदेशः भवति भगिनि छकारः आदेशः भवति यदा छकारः आदेशः भवति तत्र तु कागमः भवति एव यत्र कुत्रापि छ अस्ति चेत् तस्य तुकार तुक् आगमः भवति मध्ये आगच्छति तुक् आगमः तुक् उक् उ केवलम् उच्चारणार्थम् अस्ति अतः त अवशिष्यते तत्र ग योगे त योगे छ यदा त योगे छ अस्ति तकारस्य परे छकारः श्चुत्वसन्धि भवति श्चुत्वसन्धि तकारस्य परे छकारः अस्ति चेत् छ च भवति गच्छति इति रूपं निष्पद्यते तुक् आगमः छ यत्र भवति ग मकारस्य आदेशः भवति छ यदा छ अस्ति चेत् तुक् आगमः भवति तुक् आगमः यदा भवति तदा श्चुत्वसन्धि भूत्वा गच्छति इति
श्चुत्वसन्धि वा चतुसन्धि वा
श्चुत्व श्चुत्वसन्धि 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 एव श्चुत्वसन्धि भगिनि अस्तु यः अवकाशं न प्राप्तवान् अथवा प्राप्तवती अन्तिमम् एकं वदतु समयः अभवत् कः वदति
अहं वदामि वा
वदतु महोदय
नुम् अत्र उकार अनुनासिक अस्ति न योग योगा म अन्तिम मकारस्य हलन्त्यम् इत्संज्ञा भवति अनुनासिक उ उपदेशे अज् अनुनासिक सूत्रे इत्संज्ञा भवति नकारः अवशिष्यते उदाहरणरूपे वदिम् अत्र इ अनुनासिक इ इत्संज्ञा भवति नकार मध्ये आयाति वन्द् अवशिष्यते
रूपं कथं क्रियापदं कथं भवति
क्रियापदं वन् 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 वन्दते वन्दते वन्दते
समीचीनम् आत्मनेपदं वन्दते वन्देति भवति समीचीनं महोदय समीचीनम् अत्र एकवारं हा सर्वे पश्यन्तु नुल् प्रत्ययः अस्ति चेत् तत्र उ अवशिष्यते उ यत्र कुत्रापि अस्ति चेत् तत्र अक् आदेशः भवति ल्युट् इति प्रत्यये यु अवशिष्यते अत्र अन् आदेशः भवति शुन् प्रत्यये अपि उ एव अवशिष्यते कुत्र यत्र कुत्रापि उ अस्ति तत्र अक् आगमः भवति आदेशः भवति अक् आदेशः भवति अतः सर्वे वयं जानीमः गायकः लेखकः पाठकः नर्तकः इति अक् अत्र अन भवनं भवनम् अन इति करणम् अन इति लुट् युकारस्य कृते आगच्छति अस्तु अवगतम् इति मन्ये स्पष्टम् अस्ति वा
महोदय प्रश्नः अस्ति महोदय पट् अस्ति सप् अस्ति सत्रीं प्रत्ययः अस्ति
अहं स्थगयामि एकनिमिषं महोदय कः गन्तुम् इच्छति हा एकनिमिषम् अहं स्थगयामि देवेन्द्रमहोदय अस्ति वा
आम् अस्मि
हा प्रार्थनाम् अन्तिम प्रार्थनां वदतु शान्तिमन्त्रः
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः
धन्यवादः
धन्यवादः
धन्यवादः